इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः आदौ मुख्यवार्ताः आर्थिककार्याणां प्रमुखमन्त्रिसभया सार्धचतुर्विंशतिसहस्राधिककोटिरूप्यकाणां चतुर्णां रेलपरियोजनानाम् अनुमोदनं कृतम्। एताः परियोजनाः महाराष्ट्रमध्यप्रदेश गुजरात छत्तीसगढ़प्रदेशानां अष्टादशजनपदेषु व्याप्ताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रसेवायाः पञ्चविंशतितमे वर्षे प्रवेशं कुर्वन् विकसितभारतस्य सामूहिकं स्वप्नं साकारं कर्तुं परिश्रमं करिष्यतीति प्रतिज्ञाम् अकरोत्। रक्षामन्त्री राजनाथसिंहः एकोनत्रिंशदधिकद्विसहस्रतमवर्षपर्यन्तं त्रिलक्षकोटिरूप्यकाणां रक्षोत्पादनस्य लक्ष्यम् अवलम्बयत्। अमेरिकादेशस्य जान् क्लार्क्, मैकेल् डेवोरेट्, जान् मार्टिनिस् इत्येते त्रयः वैज्ञानिकाः अस्य वर्षस्य भौतिकशास्त्रस्य नोबेल पुरस्कारं प्राप्तवन्तः। अपि च महिलानाम् ODI इति विश्वकप् क्रिकेट् क्रीडायाम् इङ्ग्लैण्ड् बाङ्ग्लादेशदेशयोर्मध्ये गुवाहाटीनगरे क्रीडा प्रचलति। अथ वार्ताः विस्तरेण। आर्थिकविषयिकमन्त्रिपरिषदसमित्या सार्धचतुर्विंशतिसहस्रतोऽधिककोटिरूप्यकाणां चतुर्णां रेलपरियोजनानाम् अनुमोदनं कृतम्। अद्य नवदेहल्यां मन्त्रिमण्डलस्य निर्णयानन्तरं प्रसारमाध्यमान् सम्बोधयन् सूचनाप्रसारणमन्त्री अश्विनीवैष्णवः परियोजनायाः विषये अधिकविवरणम् अयच्छत्।
ये जो प्रोजेक्ट्स आज आए हैं दिल्ली मुंबई वाले में रतलाम से बड़ौदा, मुंबई हावड़ा में भुसावल से वर्धा, दिल्ली चेन्नई में बीना से इटारसी और मुंबई कोलकाता में गोंदिया से डोंगरगढ़, ये चार ऐसे सेक्शंस हैं जिन सेक्शंस के लिए क्वाड्रुपलिंग का आज इसमें अप्रूवल हुआ है।
मंत्रिणा उक्तम यत् एते प्रकल्पाः महाराष्ट्र मध्यप्रदेश गुजरात छत्तीसगढ़स्य च अष्टादश जनपदानां सुसंपर्कं करिष्यन्ति, येन भारतीय रेलमार्गस्य विद्यमान जालस्य विस्तारः प्रायः 99 शत किलोमीटरं यावत् वरिवर्धिता भविष्यति। श्रीवैष्णवः अवदत् यत् वर्धितमार्गक्षमतया गतिशीलतायां महती वृद्धिः भविष्यति, यस्याः परिणामेन भारतीय रेलसंस्थायाः परिचालनक्षमतायां सेवा विश्वसनीयतायाञ्च वृद्धिः भविष्यतीति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् गतैकादशवर्षेषु देशे उल्लेखनीयानि परिवर्तनानि अभवन्। सः अवदत् यत् पथप्रवर्तक उपक्रमाः सम्पूर्णे देशे महिलानां यूनां कृषकाणाञ्च सशक्तिकरणं कृतवन्तः। 25 कोट्यधिकाः जनाः दारिद्र्यात् मोचिताश्च। प्रधानमन्त्री नरेन्द्रमोदी सर्वकारस्य प्रमुखत्वेन राज्यराष्ट्रसेवयोः 25वें वर्षे प्रवेशं कुर्वन् एतानि वक्तव्यानि अयच्छत्। जनान् प्रति कृतज्ञतां प्रकटयन् श्रीमोदी अवदत् यत् भारतं वैश्विक अर्थव्यवस्थायाम् उज्ज्वलस्थानरूपेण वर्तते। सामाजिकप्रसारमाध्यमे सः अवदत् यत् देशे प्रमुखाः स्वास्थ्यसेवाः सामाजिकसुरक्षायोजनाश्च सन्ति। सः सूचितवान् यत् सर्वकारेण विस्तृतानि परिष्काराणि स्वीकृतानि सन्ति, अथ च सर्वक्षेत्रेषु भारतम् आत्मनिर्भरं कर्तुं जनभावना अस्ति च। या हि गर्व से कहो ये स्वदेशी है इत्यस्य स्पष्टम् आह्वानं प्रतिबिम्बयति। 31-2000तमवर्षपर्यन्तं 3 लक्ष कोटि रूप्यकाणां रक्षोत्पादनानि समुत्पाद्य 50 सहस्र कोटि रूप्यकाणां रक्षानिर्यातस्य च लक्ष्यं साधयितुं सर्वकारेण निर्धारितमस्ति। रक्षामन्त्री राजनाथसिंहः अद्य नवदेहल्यां रक्षाविनिर्माणक्षेत्रे अवसराणां विषये वार्ताहरसम्मेलनं सम्बोधयन् एतदुक्तवान्। श्रीसिंहः अवधानं दत्तवान् यत् रक्षानिर्यातोऽपि 24 सहस्र कोटि रूप्यकाणि अतिक्रमयदिति।
21-22 डोमेस्टिक सोर्सेज से हमारा जो कैपिटल एक्विजिशन होता था उस समय वो 74,000 करोड़ के आसपास का था, लेकिन 2024-25 के अंत तक डोमेस्टिक सोर्सेज से किया जाने वाला कैपिटल एक्विजिशन बढ़कर अप्रोक्सीमेटली 1,20,000 करोड़ रूपये तक पहुँच गया।
श्री सिंहः महत्वपूर्ण रक्षा क्षमतासु उच्चस्तरस्य स्वावलम्बनस्य आवश्यकतायाः विषये अवधानं ददन् राष्ट्रं स्वतन्त्रतायाः 100तमवर्षपर्यन्तं विकसितभारतस्य लक्ष्येन अग्रे गमिष्यति इति उक्तवान्। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते. सममेव कार्यक्रमोऽयम् आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति. संयुक्त राज्य अमेरिका देशस्य त्रयः वैज्ञानिकाः चिप इत्यस्य उपयोगेन क्वांटम इति भौतिकशास्त्रस्य क्रियायाः प्रदर्शनस्य अभूतपूर्व प्रयोगेभ्यः अस्य वर्षस्य नोबेल इति पुरस्कारं प्राप्तवन्तः. तेषां कार्येण क्वांटम संगणकानां, क्वांटम संवेदकानां, क्वांटम किंटोग्राफी इत्यस्य च प्रगतिः साधिता. पुरस्कार विजेतारः जॉन क्लार्क, मिशेल डेवोरेट, जॉन मार्टिनिस च कैलिफोर्निया विश्वविद्यालयेन, एल विश्वविद्यालयेन च सम्बद्धाः सन्ति. विदेशमंत्री डॉक्टर एस जयशंकरः अवदत् यत् आर्टिफिशियल इंटेलिजेंस इत्यस्य कार्यान्वयनात् प्राक् विश्वासः, सुरक्षा च आवश्यकमस्ति इति. अद्य नवदेहल्यां ट्रस्ट एंड सेफ्टी फेस्टिवल इंडिया इत्येतं कार्यक्रमं संबोधयन् डॉक्टर जयशंकरः अवदत् यत् आगामिषु वर्षेषु AI इति कृत्रिम बुद्धिमत्ता अर्थव्यवस्थां परिवर्तयिष्यति, कार्यपद्धतिं, नूतनान् स्वास्थ्योपचारांच कल्पयिष्यति इति. मन्त्रिणा इत्यपि उक्तं यत् जीवनशैल्यां AI इत्यस्य समावेशेन विश्वस्य प्रत्येकस्य नागरिकस्य जीवनं प्रभावितं भविष्यति. अद्य देशस्य विभिन्नेषु भागेषु वाल्मीकि जयन्त्युत्सवः समाचर्यते. अयं दिवसः आदिलौकिकाव्यग्रन्थस्य रामायणस्य रचयितुः महर्षिवाल्मीकिपादस्य जन्मोत्सवः अस्ति. महर्षिवाल्मीकिः आदिकविः, संस्कृतभाषायाः प्रथमः कविः इत्यभिधिया च पूज्यते. वाल्मीकिसम्प्रदायस्य सदस्याः अपि तम् ईश्वरस्य दूतरूपेण पूजयन्ति, महद्भक्त्या च प्रकटदिवसमिमम् आचरन्ति. अस्य अवसरस्य स्मारकत्वेन शोभायात्राः अपि निष्कास्यन्ते. अवसरेऽस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना देशवासिभ्यः शुभाशयाः सन्ति प्रेषिताः. सामाजिकप्रसारमाध्यमे प्रधानमन्त्री अवदत् यत् महर्षिवाल्मीकिवर्यस्य शुद्धादर्शानाञ्च विचाराणां प्राचीनकालादेव भारतीयसमाजस्य परिवाराणाञ्चोपरि गहनः प्रभावः अस्ति. श्रीमोदी इत्यपि अवदत् यत् महर्षिवाल्मीकिवर्यस्य सामाजिकसौहार्दस्य आधारेण निर्मितः परिकल्पनात्मकः दीपस्तम्भः नागरिकाणां जीवनं सर्वदा प्रकाशयिष्यति. राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् ऑपरेशन सिन्दूर इत्यस्य समये देशस्य सशस्त्रसेनाः संयुक्ततायाः सामरिकदूरदृष्टेः च प्रदर्शनम् अकुर्वन्. सा अवोचत् यत् क्रमबद्धं त्रिसेवा प्रतिक्रियायाः परिणामेन प्रभावपूर्णं समन्वयं जातं, येन नियन्त्रणरेखायाः पारम् आतंकवादस्य आधारिकसंरचना विक्षिप्ता जाता. अद्य राष्ट्रपतिभवने 65वें राष्ट्रियरक्षामहाविद्यालयस्य पाठ्यक्रमस्य अध्यापकेभ्यः, पाठ्यक्रमस्य सदस्येभ्यश्च सम्बोधयन्ती राष्ट्रपतिः मुर्मुः एतत् उक्तवती. केन्द्रप्रशासनेन अग्निसुरक्षायाः विस्तारणाय, आधुनिकीकरणाय च राष्ट्रियविपत्प्रतिक्रियाकोषान्तर्गतं हरियाणा, मध्यप्रदेश, राजस्थान राज्येभ्यः 73,00,000,00,000 रूप्यकाणि अनुमोदितानि. केन्द्रीयगृहमन्त्रिणः अमितशाहस्य अध्यक्षतायाम् उच्चस्तरीय समितिः साहाय्यस्य अनुमोदनम् अकरोत्। आहत्य 17,00,000,00,000 रूप्यकाणि हरियाणाराज्याय, 3,04,00,000,00,000 रूप्यकाणि मध्यप्रदेशाय, 88,30,00,000,00,000 रूप्यकाणि राजस्थानाय च अनुमोदितानि सन्ति. समितिः NDRF इति दलपक्षतः गतवर्षे जलप्लावनेन, भूस्खलनेन च प्रभाविताभ्याम् असम गुजरात राज्याभ्याम् 77,00,000,00,000 रूप्यकाणाम् अतिरिक्त केन्द्रीय साहाय्यस्यापि अनुमोदनम् अकरोत्. भारतस्य ऋतुविज्ञानविभागेन अद्य हिमाचलप्रदेशे, उत्तराखण्डे रायलसीमायां, तमिलनाडुराज्ये, पुदुच्चेरीराज्ये, करैकलक्षेत्रे, भारतस्य पूर्वोत्तरराज्येषु च प्रचण्डतोऽधिकवृष्टिः भविष्यति इति पूर्वानुमानं कृतमस्ति. महिलानाम् एकदिवसीयायां विश्वकप् क्रिकेट् इति क्रीडायां बांग्लादेशः किञ्चित् कालपूर्वं गुवाहाटीनगरे इङ्ग्लैण्डदेशं विरुध्य ओवराख्ये 35 कन्दुकक्षेपचक्रेषु 5 स्तोभानां पतनपुरस्सरं 14,00,000 धावनाङ्कान् समर्जयत्. अद्य पेरुनगरस्य लीमानगरे जूडो जूनियर वर्ल्ड चैम्पियनशिप क्रीडायां भारतस्य प्रथमं पदकं विजित्य जूडो क्रीडिका लिन्थोय चानम्बम् इत्येषा इतिहासं निर्मितवती इति वार्ताः.